सहस्रशीर्षा पुरुषः सहस्राक्षः सहस्रपाद सभूमिं विश्वतो भृत्वा अत्यतिष्ठद्दशाङ्गुलम् पुरुषयेवेदकम् सर्वम् यद्भोदयश्च भव्यम् भूतावृतत्तस्येषानः यदन्नेनादिलोहति वेदावानस्य महिमा अथो ज्यायागश्च पुरुषः पादोऽस्य विश्वाभूतानि त्रिपादस्यामृतन्निमे त्रिपादोऽर्धमुदये पुरुषः पादोऽस्येहाभवात्पुनः ततो विश्वं यद्गामत् साचनामशने अभि तस्मात् विराडजायत विराजो अधिपूरुषः स जातो अत्यरिच्यत पश्चाद्भूमिमतो पुरः यत्पुरुषेण हविषा देवायज्ञमदन्वत वसन्तो अस्याशीराज्यम् ग्रीष्मयुग्मशरद्भिः सप्तास्यासन्परिधयः त्रिसप्तसविधकृताः देवायज्ञन्धन्वानाः अवद्धन् पुरुषम् वशन् तैयज्ञम् बर्हिः प्रोक्षन् पुरुषम् दानमकृतः तेन देवा अयजन्त साध्यायशयश्च ये तस्माद्यज्ञात् सर्वहुतः संहृतम् बृहदाज्यम् अशोकस्तागस्तक्रे वायव्याने आरण्यां ग्राम्याश्च ये तस्माद्यज्ञात् सर्वहुतः सामानिजज्ञे छन्दागुंसिजज्ञे तस्माद् यजस्तस्मादजायत तस्मादश्वा अजायन्त वेगे च भयाजतः गावो हयज्ञे तस्मात् तस्माद्धाता अजावयः यत्पुरुषं गतः कथिता व्यकल्पयन् मुखङ्गमस्य को बाहो काहोरो बालामुच्छेद ब्राह्मणोऽस्य मुखमासीत् बाहोरादन्यकृतः ओरोदलस्य यद्वैश्यः पद्भागं सोऽत्र अजायत चन्द्रमा मनसो जातः चक्षोसोऽज अजायत मुखालिङ्गश्चाग्निश्च प्राणाद्वायुरजायत माभ्या आसीदन्तरिक्षम् शेषाद्यौ समवर्तत पद्भ्यां भूमिर्दिश श्रोत्रात् तथा लोकागम् अकल्पयन् वेदाहमेतम् पुरुषम् महान्तम् आदित्यवर्णन्तमसस्तु काले सर्वाणि रूपाणि विचित्य धीरः नामानि कृत्वा विवदनियतास्ते ध्याता पुरस्ताद्यमुदा जहाद शक्रप्रभिद्वान्मदिषश्चतस्रः तमेवं विद्वानमृतैः भवति मान्यः पञ्चायनाय विद्यते यज्ञेन यज्ञमयजन्तदेवाः तानि धर्माणि प्रथमान्यासन् देहनागम् महिमानः सचन्ते यत्र पूर्वे साध्याः सन्ति देवाः अध्यसम्भोधपृथिवीरथाश्च विश्वकर्मणः समबद्धदाधि तस्य त्वष्टा विदधद्रूपमेधे तत्पुरुषस्य विश्वमादानमग्रे वेदाहमेदम् पुरुषम् महान्तम् आदित्यवर्णन्तमसस्परस्तात् तमेवम् विद्वानमृत इह भवति नान्यम् पञ्चा विद्यते जनाय प्रजापतिश्चरति गर्भे हन्तः अजायमानो बहुधा विजायते तस्य धीराः परिदानन्ति योनिम् मदीजीनाम् व्रतमिच्छन्ति वेधसः यो देवे धारपति यो देवानाः पुरोहितः ऋतम् ब्राह्मम् जनयन्तः देवा अग्रे तदः ब्रुवन् यस्यैवम् ब्राह्मणा विद्यात् तस्य देवाः संवसे वीष्टते लक्ष्मीश्च पत्न्यौ अहोरात्रे पार्श्वे नक्षत्रानि रूपम् अश्विनौ यात्तम् इष्टम् मनिधान अमुम् मनिधान सर्वम् मनिधान ॐ शान्तिः शान्तिः शान्तिः।